एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः बागमती लुम्बिनी कर्णाली प्रदेशानां प्रदेश प्रमुखान् नियुक्तवान् अस्ति। मन्त्री परिषदः परामर्शेन नेपालस्य संविधानानुसारेण राष्ट्रपतिना पौडेलेन बागमती प्रदेशस्य प्रमुख पदे कैलाली जनपदस्य दीपक प्रसाद सापकोटा, लुम्बिनी प्रदेशस्य कृते रोल्पा जनपदस्य कृष्णबहादुर घरती मगर, कर्णाली प्रदेशस्य प्रमुख पदे बझाङ जनपदस्य यज्ञराज जोशी च नियुक्ता सन्तीति। राष्ट्रपति कार्यालयस्य प्रवक्त्रा शैलजा रेग्मी भट्टराई इत्यनया प्रकाशितायां विज्ञप्तौ उल्लिखितम् वर्तते। तत्पूर्वं राष्ट्रपतिः पौडेलः बागमती प्रदेशस्य प्रमुखं यादवचन्द्र शर्माणं, लुम्बिनी प्रदेशस्य प्रमुखं अमिक शेरचन इत्यमुं, कर्णाली प्रदेशस्य प्रमुखं तिलक परियारं च ह्य एव मन्त्रिपरिषदः परामर्शेन नेपालस्य संविधानस्य अनुसारेण पदमुक्तान् वेदधात् इति राष्ट्रपतेः कार्यालयेन प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। राष्ट्रपतिः रामचन्द्र पौडेलः कथयति राजनैतिक स्थायित्वस्य विकासस्य सुशासनस्य च माध्यमेन देशः समृद्धिर्मार्गे नेतव्यः। शीतल निवासवर्तिनी राष्ट्रपतेः कार्यालय डिल्ली रमण कल्याणी रेग्मी स्मारक पुस्तकालय समित्या ह्य आयोजिते पुरस्कार वितरण समारोहे राष्ट्रपतिः पौडेलः स्वस्य क्षमतायाः देशजनतयोर्हिताय सर्वहि समर्पणस्य आवश्यकताम् न्यस्चिनोत्। राष्ट्रपतिः पौडेलः शान्तेः अहिंसायाः स्वतन्त्रतायाः लोकतन्त्रस्य च पक्षधरस्य डॉ रेग्मिणः योगदानं नेपालस्य शिक्षाक्षेत्रे प्रेरणास्पदमस्ति, अनेन सदा समुचित मार्गे प्रवर्तनाय प्रेरणा प्रदीयते इति च अवोचत्। समारोहे राष्ट्रपतिना पौडेलेन वरिष्ठ पत्रकारः भैरव रिसालः गतविक्रमवर्षीयेण डॉ डिल्ली रमण शान्ति पुरस्कारेण, जापान देशीय सहयोग नियोग गतविक्रमवर्षीयेण डॉ डिल्ली रमण रेग्मी अन्तर्राष्ट्रिय शान्ति पुरस्कारेण च सम्मानितौ वर्तेते। कार्यक्रमे शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई, डिल्ली रमण कल्याणी रेग्मी स्मारक पुस्तकालयम् अतिरिक्तम् व्यवस्थितम् प्रविधि मैत्रिणञ्च पादयितुं सर्वकारेण कार्यं प्रारब्धमस्तीति असूचयत्। सर्वकारेण नेपाली सेनायाः बलाधिकृत रथिने अशोक राज सिग्देलाय कार्यवाहक प्रधान सेनापति पदस्य कार्यभारं प्रदातुं परामृष्टमस्ति। श्रावणस्य चतुर्दशे दिवसे उपविष्टस्य मन्त्रिपरिषदः निर्णयान् सार्वजनिक कर्तुं ह्य सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ अस्यैव श्रावणस्य पञ्चविंशात् दिवसात् बलाधिकृत रथिने सिग्देलाय कार्यवाहक प्रधान सेनापतेः कार्यभारं प्रदातुं राष्ट्रपति समक्षं परामृष्टुं निर्णीतमस्तीति असूचयत्। एवमेव मन्त्रिपरिषदः उपवेशेन चिकित्सा शिक्षायोगस्य शिक्षा विज्ञान प्रविधि मन्त्रालयान्तर्गतानां निकायानाञ्च कृते 69 पदस्थानानि, महिला बाल बालिका ज्येष्ठ नागरिक मन्त्रालयान्तर्गतानां कार्यालयानां कृते राजपत्राङ्कितानि 11 अस्थायी पदस्थानानि च स्वीकर्तुं निर्णीतमस्ति इति मन्त्री गुरूङ अज्ञापयत्। एवमेव मन्त्रिपरिषदः उपवेशेन चीन, अस्ट्रेलिया, रूस, दक्षिण अफ्रिका, श्रीलंका देशेषु कार्यरतान् नेपालिन आवासीय राजदूतान् पञ्चदिवसाभ्यन्तरे नेपालं प्रत्यागन्तुं, विभिन्नेषु 18 देशेषु राजदूत पदे नियुक्तये विभिन्नान् जनान् परामृष्टुं, सर्वकारस्य राजपत्राङ्कित विशिष्ट श्रेण्यां नियुक्तानां सचिवान् स्थानान्तरयितुं च निर्णीतमस्तीति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री गुरूङ अज्ञापयत्। प्रधानमन्त्री केपी शर्मा ओली नेपालस्य विकासाय समृद्धये च अधिकाधिकानां निवेशकानां नेपालं सम्प्रेषणेन सहयोगं विधातुं स्विजरल्याण्ड देशीय सर्वकारम् अनुरुणद्धि। राजदूतेन डानियल मेउली मोन्टेलोने इत्यनेन बालुवाटारवर्तिनी प्रधानमन्त्री निवासे विहिते मेलने प्रधानमन्त्री ओली नेपालस्य विकासाय वैदेशिक सहयोग उत्प्रेरको भवतीति अभाषत। प्रधानमन्त्री ओली प्रत्यक्षं वैदेशिकं निवेशं वर्धयितुं सर्वकारेण आवश्यक सुधारात्मक कार्याणि विधीयते इति प्रतिबद्धताम् अभिव्यज्य सम्प्रत्यैव सम्पन्ने निवेश सम्मेलने 50 देशेभ्य उत्साहजनिका सहभागिता सम्भूता आसीदिति अवोचत्। नेकपा एकीकृत समाजवादी दलेन केन्द्रीय समितेः पूर्णतायै दलाध्यक्षस्य माधव कुमार नेपालस्य अध्यक्षतायां त्रिसदस्यीयं कार्यदलं संघटितमस्ति। आलोक नगरवर्तिनी दलस्य केन्द्रीय कार्यालये ह्य उपविष्टेन केन्द्रीय समितेः उपवेशेन सर्वेभ्य प्रदेशेभ्य केन्द्रीय सदस्यार्थं केन्द्रे प्रेषितस्य परामर्शस्याधारेण नेतृणां क्षमतायाः योगदानस्य च मूल्यांकनं विधाय कार्यदलेन पदाधिकारिणां केन्द्रीय सदस्यानां च नामानि परामृष्टुं निर्णीतमस्तीति नेता सोमप्रसाद पाण्डेयः अज्ञापयत्। एवमेव उपवेशे देशस्य सामयिक राजनीतेः समीक्षया सहैव दलस्य कार्ययोजनायाश्च विषयेष्वपि विमृष्टमिति नेता पाण्डेयः असूचयत्। राष्ट्रिय प्रजातन्त्र दलस्य जनपदाध्यक्षाणाम् उपवेशः अद्य श्वश्च काष्ठमण्डपे आयोज्यते। उपवेशे सप्तसप्ततेः जनपदानाम् अध्यक्षः स्वस्य जनपदस्य सांगठनिक प्रतिवेदनानि प्रस्तोष्यन्ति इति दलस्य प्रवक्ता मोहन कुमार श्रेष्ठः अज्ञापयत्। उपवेशे दलाध्यक्षः राजेन्द्र लिङ्गदिनः दलस्य नीतेः विचाराणां सिद्धान्तानां रणनीतेः आगामि कार्ययोजनानां च विषयेष् जनपदाध्यक्षेभ्य निर्देशनं ददाति। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ रेडियो नेपालस्य सर्वहि नेपालीभि श्रवणस्य राष्ट्रिय संचार माध्यमस्य रूपेण विस्तारणाय बलं ददाति। सिंहप्रसाद वर्तिनी रेडियो नेपालस्य केन्द्रीय कार्यालये ह्य आयोजिते स्वागत कार्यक्रमे संचार मन्त्री गुरूङ अवोचत् विज्ञान प्रविधे विकसित माध्यमैस्सह प्रतिस्पर्धां विधाय रेडियो नेपालः स्वस्य प्रसारणं समृद्धं सम्पाद्य राष्ट्रस्य सुदृढ प्रसारण संस्थायाः रूपेण संस्थापितो विधेयः। ह्य एव राष्ट्रिय समाचार समितेः भद्रकाली वर्तिनी केन्द्रीय कार्यालये आयोजिते कार्यक्रमे संचार मन्त्री गुरूङ समाचाराणां विषयवस्तूनां च उत्पादनस्य क्षेत्रे समित्या नेतृत्वदायी भूमिकायाः निर्वहणाय बलं प्रादात्। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः गदति संक्रमणकालिक न्यायस्य शान्तिप्रक्रियायाश्च अवशिष्टं कार्यं पूरयितुं सर्वैर्मिलित्वा अग्रे वर्धनीयम्। अनौपचारिक क्षेत्र सेवा केन्द्रेण ह्य ललितपुरे आयोजिते द्वात्रिंशत् प्रकाश स्मृति दिवसे त्रिंश प्रकाश मानवाधिकार पुरस्कार वितरण कार्यक्रमे च उपप्रधानार्थमन्त्री पौडेलः अभाषत लोकतन्त्रस्य अभावस्य दशायां मानवाधिकाराणां संरक्षणं न सम्भवतीति विषये सर्वकारः स्पष्टोऽस्तीत्यतः मानवाधिकाराणां संरक्षणाय सर्वहि प्रयतनीयम्। तदवसरे गतवर्षस्य प्रकाश मानवाधिकार पुरस्कारेण कपिलवस्तु जनपदस्य रूकैया खातुन सम्मानिता आसीत्। गृहमन्त्री रमेश लेखकः राष्ट्रिय परिचय पत्रस्य वितरण कार्याय तीव्रतां प्रदातुं निर्दिशति। सिंहप्रसाद वर्तिनः राष्ट्रिय परिचय पत्र पञ्जीकरण विभागस्य पूर्वद्युः निरीक्षणं विदधानः गृहमन्त्री लेखकः राष्ट्रिय परिचय पत्रं सर्वकारस्य सुशासनेन सह सम्बद्ध विषयोऽस्तीति भाषमाणः परिचय पत्रस्य वितरण कार्याय तीव्रतां प्रदातुं निरदिशत् इति समाचारः।